नमस्सर्वेभ्यः। अद्य लघुसिद्धान्तकौमुद्याः समासप्रकरणे ऊनविंशः पाठः, बहुव्रीहिसमासस्य द्वितीयः पाठः। अद्य वयं बहुव्रीहिसमासस्य विषये पुंवद्भावः कथं भवति, समासान्ताः के के भवन्ति इति जानीमः। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं। नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्। ह्यस्तनग्रन्थभागं पठित्वा अग्रे गच्छामः। बहुव्रीहिसमासः अथ बहुव्रीहिः शेषो बहुव्रीहिः अधिकारोऽयं प्राक् द्वन्द्वात् अनेकमन्यपदार्थे अनेकं प्रथमान्तम् अन्यस्य पदस्य अर्थे वर्तमानं वा समस्यते स बहुव्रीहिः। सप्तमी विशेषणे बहुव्रीहौ सप्तम्यन्तं विशेषणञ्च बहुव्रीहौ पूर्वं स्यात्। अत एव ज्ञापकात् व्यधिकरणपदो बहुव्रीहिः। हलदन्तात् सप्तम्याः संज्ञायां हलन्तात् अदन्ताच्च सप्तम्याः अलुक्। कण्ठे कालः प्राप्तम् उदकं यं सः प्राप्तोदको ग्रामः। ऊढरथः अनड्वान् उपहृतपशुः रुद्रः। उद्धृत उदना स्थाली पीताम्बरः हरिः वीरपुरुषकः ग्रामः। प्रादिभ्यः धातुजस्य वाच्यो वाच उत्तरपदलोपः प्रपतितपर्णः प्रपर्णः। नन्यः अस्यर्थानां वाच्यो वाच उत्तरपदलोपः अविद्यमानपुत्रः अपुत्रः। ह्यः बहुव्रीहि समासस्य विधानं दृष्टम्। बहुव्रीहिसमासविधायकं सूत्रं सोदाहरणं विवृणुत। अनेकमन्यपदार्थे इति सूत्रस्य अर्थं विलिख्य अनेकं प्रथमान्तम् अन्यपदार्थे विद्यमानं समस्यते तस्य उदाहरणानि कानिचन दातव्यानि। शेषो बहुव्रीहिः इत्यत्र शेषपदस्य कः अर्थः? उक्तादन्यः शेषः। एतावता अष्टाध्याय्यां द्वितीया तृतीया इत्यादि विभक्तिनिर्देशपूर्वकं समासः विहितः। प्रथमा विभक्तिं निर्दिश्य कोऽपि समासः न विहितः। अतः शेषपदार्थः प्रथमा प्रथमान्तम् इति शेषपदग्रहणात् स्वीक्रियते। व्यधिकरणबहुव्रीहौ किं ज्ञापकं किम् उदाहरणम्? सप्तमी विशेषणे बहुव्रीहौ इत्यत्र सप्तमीग्रहणं व्यधिकरणबहुव्रीहौ ज्ञापकम्। तोहि सामान्यतः प्रथमान्तानामेव बहुव्रीहिश्चेत् सप्तमीग्रहणं व्यर्थम्, अतः तद्बलात् व्यधिकरणबहुव्रीहिः अपि भवति इति ज्ञातवन्तः। कण्ठे कालः इति उदाहरणम्। अग्रे समासानां विग्रहवाक्यं लेखनीयम्। पीतक्षीरः बालः, पीताम्बरः विष्णुः। राघवी।
पीतं क्षीरं येन सः पीतक्षीरः बालः, पीतम् अम्बरं यस्य सः पीताम्बरः विष्णुः।
तत्र पीतक्षीरः इति पीत इति कृदन्तशब्दः, पिबति इत्यस्य भूतकाले क्तप्रत्यये पीतम्। अतः पीतं क्षीरं येन सः, बालः क्षीरस्य पाने कर्ता, अतः तृतीया विभक्तिः। पीतं क्षीरं येन सह पीतक्षीरः बालः। पीताम्बरः इत्यत्र तु पीतपदार्थस्य गुणवाचकत्वं, येल्लो कलर् इत्यर्थः। पीतम् अम्बरं यस्य सः, विष्णोः अम्बरस्य च स्वस्वामिभावः सम्बन्धः, अतः षष्ठी विभक्तिः। पीतं क्षीरं येन सह पीतम् अम्बरं यस्य सः। दत्तधनः याचकः, दत्तधनः राजा। शुभा भगिनी।
दत्तं धनं यस्मै सः दत्तधनः याचकः, दत्त दत्तं धनं येन सः दत्तधनः राजा.
सम्यक्. अत्र उभयत्र अर्थः समानः, दत्तधन इत्यनयोः. किन्तु दत्तं धनं यस्मै इत्यत्र याचकः धनस्य दाने सम्प्रदानं भवति, अतः चतुर्थी. दत्तं धनं येन इत्यत्र तु कर्तृत्वं राज्ञः दाने, अतः तृतीया भवति. दत्तं धनं यस्मै सः दत्तधनः, दत्तं धनं येन सः अपि दत्तधनः. प्रसङ्गमाश्रित्य अर्थः ज्ञातव्यः. पतितफलः वृक्षः बहुफलः वृक्षः. राघवी.
पतितं फलं यस्मात् सः पतितफलः वृक्षः, बहूनि फलानि यस्मिन् सः बहुफलः.
पतितं फलं यस्मात् अथवा पतितानि फलानि यस्मात् सः पतितफलः वृक्षः. तत्र वृक्षस्य फलपतने अपादानत्वं विवक्षितं. वृक्षः अवधिः, वृक्षात् फलं पतितम् इत्यत्र. अतः यस्मात् सः इत्युच्यते. बहूनि फलानि यस्मिन् इत्यत्र तु वृक्षस्य अधिकरणत्वम्. गजाननः कमलनेत्रः. शुभा भगिनी.
गजस्य आननं गजाननं, गजाननम् इव आननं यस्य सः गजाननः. कमलस्य नेत्रम् इव नेत्रं यस्.
कमलस्य नेत्रं भवति वा?
न कमलम् इव नेत्रं कमलनेत्रं, कमलनेत्रम् इव नेत्रं यस्य सः कमलनेत्रः.
लेखने सम्यगेव लिखितं किल इदानीं किमर्थं? कमले कमलम् इव नेत्रं यस्य सः, अथवा कमले इव नेत्रे द्विवचनत्वात् यस्य सः, तावदेव. गजाननमिव आननं यस्य सः गजाननः. तत्र एकस्य आननशब्दस्य लोपः भवति. कमलनेत्रः इत्यत्र तु कमले इव नेत्रे यस्य सः. कमलम् इव नेत्रम् इति वक्तुं शक्यते, किन्तु नेत्रं नेत्रद्वयं भवति इत्यतः कमले इव नेत्रे यस्य सः कमलनेत्रः. कार्यक्रमे निर्विघ्नं भूयात् कार्यक्रमः निर्विघ्नः भूयात्. राघवी.
विघ्नानाम् अभावः निर्विघ्नम्. निर्विघ्नः विघ्नः यस्मात् सः निर्विघ्नः.
निर्विघ्नम् इत्यत्र अव्ययीभावसमासः. विघ्नानाम् अभावः निर्विघ्नम्. कार्यक्रमे विघ्नानाम् अभावः भूयात् इति. यदा तु कार्यक्रमस्यैव विशेषणं दीयते, निर्गताः विघ्नाः यस्मात् सः निर्विघ्नः इति भवति. अविघ्नः इति दत्तं तत्र. न विद्यमानाः विघ्नाः यत्र इत्यत्र तु अविघ्नः इति भवति. कार्यक्रमः अविघ्नः भूयादित्यस्ति चेत् तत्र नञ्, यत्र नञ् अस्ति तत्र न लोपो न ञः इति, नञः लोपः भवति. अतः तत्र तु न विद्यमानाः विघ्नाः यस्य इत्यत्र अविघ्नः इति समस्तपदं भवति. अग्रे गच्छामः. स्त्रियाः पुंवद् भाषितपुंस्कादनूं समानाधिकरणे स्त्रियाम् अपूरणी प्रियादिषु इति अग्रिमं सूत्रमस्ति. स्त्रियाः पुंवत्, स्त्रियाः इति षष्ठी, पुंवत् इति अव्ययम्, भाषितपुंस्कादनूङ् इति एकमेव पदं यत्र षष्ठीविभक्तिः अस्ति किन्तु विभक्तिप्रत्ययः न श्रूयते इत्यतः लुप्तषष्ठीकम् इति वदामः. षष्ठीविभक्त्यर्थः अत्र अस्ति. स्त्रियाः इत्यस्य विशेषणं तत्. समानाधिकरणे इति सप्तमी, स्त्रियाम् इति सप्तमी, अपूरणीप्रियादिषु इत्यपि सप्तमी. इदम् अतिदेशसूत्रं, यथा स्थानिवदादेशः इत्यादि उच्यते. अतिदेशः, एकस्य धर्मः अपरस्मिन् आरोप्यते, सः अतिदेशः. अनेन पुंवत् भावः अतिदिश्यते. पुंवत् यथा पुल्लिङ्गे तथा रूपं भवति इति पुंवत् रूपम् अतिदिश्यते. अत्र भाषितपुंस्कात् अनूङ् इत्यस्य विग्रहं प्रदर्शयति. उक्तपुंस्कात् अनूङ् नाम ऊङः अभावः अस्याम् इति बहुव्रीहिः. अत्र समासे विशेषः अस्ति. भाषितपुंस्कादनूङ् इत्यत्र समस्तपदं, किन्तु अलुक् दृश्यते. भाषितपुंस्काद् इत्यत्र पञ्चमी विभक्तिः श्रूयते. अनूङ् इत्यत्र वस्तुतः षष्ठी विभक्तिः भवेत्, न श्रूयते. निपातनात् पञ्चम्याः अलुक् षष्ठ्याश्च लुक्. वस्तुतः अत्र समासत्वात् पञ्चमी विभक्तेः श्रवणं न स्यात्, षष्ठी विभक्तेः श्रवणं भवेत्. निपातनात् निपातनं सिद्धप्रक्रियस्य निर्देशः निपातनम् इत्युच्यते. सूत्रे कदाचित् साक्षात् प्रयोगः क्रियते इत्यतः अत्र विशेषः अस्ति. तावत् अवगम्यते चेत् अलम्. सूत्रस्य अर्थः एवमस्ति. तुल्ये प्रवृत्तिनिमित्ते यदुक्तपुंस्कं तस्मात् परः ऊङ्भावः ऊङः अभावः यत्र तथाभूतस्य स्त्रीवाचकशब्दस्य पुंवाचकस्य इव रूपं स्यात् समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे, न तु पूरण्यां प्रियादौ च परतः. किमपि न अवगम्यते केवलस्य सूत्रार्थस्य पठनेन. पुंवद्भावः इति अस्माभिः उच्यते. किं तत्? समासे पूर्वपदं यदा यत्र स्त्रीलिङ्गं भवति तस्य पुल्लिङ्गवत् रूपं भवति. एकम् उदाहरणं दीयते. रूपवती भार्या यस्य इति यदि अस्ति, तत्र रूपवती इति स्त्रीलिङ्गमस्ति, किन्तु समासे रूपवद् भार्यः, रूपवत् इति पुल्लिङ्गस्य यत् प्रातिपदिकं तदेव स्वीक्रियते, सः पुंवद् भावः इति उच्यते. पूर्वपदं स्त्रीलिङ्गं भवति चेत् तस्य पुल्लिङ्गवद् रूपं भवति इत्यर्थः पुंवद्भावस्य. कदा भवति पुंवद्भावः? इत्यत्र पञ्चनियमाः सन्ति. भाषितपुंस्कम् इति प्रथमं. कीदृशस्य स्त्रीलिङ्गस्य पुंवद्भावः भवति? समाने अर्थे पुल्लिङ्गे स्त्रीलिङ्गे च यस्य पदस्य प्रयोगः अस्ति सः भाषितपुंस्कः. अर्थात् उदाहरणं स्वीकुर्मः. अजः अजा इत्यस्ति. केवलं लिङ्गे एव भेदः. सिंहः सिंही, नरः नारी इत्येते शब्दाः, नारी सिंही अजा इत्यादयः शब्दाः भाषितपुंस्काः इति उच्यन्ते. पुल्लिङ्गे अपि एकं पदं भवति, स्त्रीलिङ्गे अपि पदं भवति, किन्तु केचन नित्यस्त्रीलिङ्गशब्दाः भवन्ति, केवलं स्त्रीलिङ्गे एव भवन्ति, पुल्लिङ्गे न भवन्ति. तादृशाः भाषितपुंस्काः न. उदाहरणार्थं स्त्री इत्येव शब्दः. स्त्रीशब्दस्य स्त्रीलिङ्गे एव वृत्तिः, तस्य पुल्लिङ्गत्वं, तस्य पदस्य पुल्लिङ्गपदं किमपि नास्ति, अतः तत् पदं भाषितपुंस्कं न भवति. यस्य पदस्य समाने अर्थे पुल्लिङ्गे स्त्रीलिङ्गे च प्रयोगः अस्ति तादृशः शब्दः भाषितपुंस्कः इति कथ्यते. अर्थात् यत्र पुल्लिङ्गपदात् स्त्रीप्रत्ययं योजयित्वा वयं स्त्रीलिङ्गपदं कुर्मः, उभयोः लिङ्गयोः प्रयोगः अस्ति इत्यर्थः. सर्वाणि विशेषणानि भवन्ति. सुन्दरः सुन्दरी, रूपवान् रूपवती इत्येवं सर्वे एतादृशाः शब्दाः भाषितपुंस्काः इति उच्यन्ते. अतः पूर्वपदं स्त्रीलिङ्गं भाषितपुंस्कं भवेत् इति प्रथमः नियमः. द्वितीयं किम्? अनूङ् इत्यस्ति. स्त्रीप्रत्ययाः अष्ट सन्ति. टाप् डाप् चाप्, नीप् नीष् नीन्, ऊङ् ति इति अष्टौ स्त्रीप्रत्ययाः भवन्ति. आकारान्ताः त्रयः. टाप् डाप् चाप् इति आकारः भवति. नीप् नीष् नीन् इत्यत्र ईकारः भवति. ऊङ् इति प्रत्ययः अस्ति. तत्र ऊकारः भवति स्त्रीलिङ्गे, यथा श्वशुरः श्वश्रूः इत्यादि. केषुचित् शब्देषु ऊङ् इति स्त्रीप्रत्ययः भवति. ऊङ् प्रत्ययान्तं न भवेत् इति द्वितीयः नियमः. पूर्वपदम् ऊङन्तं न भवेत्. ऊङन्तम् अस्ति चेत् तस्य भाषितपुंस्कत्वं न भवति. क्षम्यतां तस्य पुंवद्भावः न भवति सः भाषितपुंस्कः चेदपि पुंवद्भावः न भवति यथा श्वश्रूः इति भाषितपुंस्कः शब्दः श्वशुरशब्दात् ऊङ् प्रत्ययस्य योजने श्वश्रूः इति भवति किन्तु तत्र ऊङ्गन्तत्वात् तस्य पुंवद्भावः न भवति तृतीयः नियमः समानाधिकरणसमासः भवेत् सामानाधिकरण्यं किम् इति पूर्वमपि दृष्टं पूर्वपदम् उत्तरपदं च समानं पदार्थं यत्र बोधयतः सः समासः समानाधिकरणः सामान्यतः बहुव्रीहिसमासः समानाधिकरणः कर्मधारयसमासः अपि समानाधिकरणः अतः एतयोः समासयोः एव पुंवद्भावः भवति पूर्वपदं स्त्रीलिङ्गं भाषितपुंस्कं भवेत् ऊङ् प्रत्ययान्तं न भवेत् समासः बहुव्रीहिः वा कर्मधारयो वा भवेत् चतुर्थः नियमः समानाधिकरणे स्त्रियाम् इत्यस्ति अर्थात् उत्तरपदमपि स्त्रीलिङ्गमेव भवेत् सामान्यतः भवति समानाधिकरणीयमस्ति इत्यतः उभयोः पदयोः लिङ्गं समानं भवति कदाचित् विशेषः भवितुम् अर्हति तत्र उत्तरपदमपि स्त्रीलिङ्गं भवेत् इति नियमः अन्तिमः अस्ति तत्र निषेधः अस्ति अपूरणीप्रियादिषु पूरणप्रत्ययान्तं न भवेत् उत्तरपदं प्रियादिगणे अपि न भवेत् इत्यस्ति अस्य निषेधस्य विषये अग्रे जानीमः तर्हि इदानीं सामान्यतः पुंवद्भावः कुत्र भवति बहुव्रीहिसमासे वा कर्मधारयसमासे वा पदद्वयमपि स्त्रीलिङ्गे अस्ति चेत् पूर्वपदं भाषितपुंस्कं चेत् पुंवद्भावः भवति तत्र निषेधद्वयमस्ति पूर्वपदम् ऊङ् प्रत्ययान्तं चेत् पुंवद्भावः न भवति उत्तरपदं पूरणप्रत्ययान्तं वा प्रियादिगणस्थः वा चेत् न भवति इदानीं तत्र गत्वा पदं सूत्रं पश्यामः स्त्रियाः पुंवत् स्त्रीलिङ्गशब्दस्य पुंवद्भावः कब् भवति कदा भवति भाषितपुंस्कात् यदा स्त्रीलिङ्गशब्दः भाषितपुंस्कः अस्ति तदा भवति अनूङ् ऊङ् प्रत्ययः नास्ति चेत् भवति समानाधिकरणे उत्तरपदं पूर्वपदस्य समानाधिकरणं भवति चेत् स्त्रियां परे अतः उत्तरपदं स्त्रीलिङ्गं भवेत् अपूरणी प्रियादिषु पूरणान्तं वा प्रियादिगणे वा न भवेत् तदेव सूत्रार्थे अपि उच्यते तुल्ये प्रवृत्तिनिमित्ते यत् उक्तपुंस्कं भाषितपुंस्कम् इत्यस्य विवरणं तुल्ये प्रवृत्तिनिमित्ते नाम समानः अर्थः भवेत् कदाचित् केचन शब्दाः भवन्ति येषां पुल्लिङ्गे भिन्नः अर्थः स्त्रीलिङ्गे भिन्नः अर्थः यथा कुटः कुटी इत्यस्ति किन्तु कुटः इत्यस्य घटः इत्यर्थः कुटी इत्यस्य तु गृहम् इत्यर्थः अर्थः भिन्नः अस्ति अतः तादृशं भाषितपुंस्कं न समानः अर्थः अजः अजा सुन्दरः सुन्दरी इत्यादि तदेव तुल्यं प्रवृत्तिनिमित्तम् इत्युच्यते यं धर्मम् आश्रित्य तत्पदं प्रवृत्तम् इत्यर्थः तुल्ये प्रवृत्तिनिमित्ते यदुक्तपुंस्कं भाषितपुंस्कम् इत्यस्य एतद्विवरणं तस्मात् परः ऊङः अभावः यत्र ऊङ् प्रत्ययः नास्ति तथाभूतस्य स्त्रीवाचकशब्दस्य पुंवाचकस्य इव रूपं स्यात् पुंवद्भावः इत्युक्ते किं यथा पुल्लिङ्गपदस्य रूपं भवति तथा अस्य रूपं भवति इत्यर्थः कुत्र भवति समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे उत्तरपदमपि स्त्रीलिङ्गं भवेत् समानाधिकरणं भवेत् न तु पूरण्यां प्रियादौ च परतः पूरणप्रत्ययान्ताः पूरणप्रत्ययाः संख्यावाचकेभ्यः भवन्ति द्वितीय तृतीय चतुर्थ इत्यादि पदानि यानि सन्ति तानि पूरणप्रत्ययान्तानि इत्युच्यन्ते अतः द्वितीया तृतीया चतुर्थी पञ्चमी इत्यादि शब्दाः पूरणप्रत्ययान्ताः उत्तरपदं पूरणप्रत्ययान्तं न भवेत् प्रियादिः इति कश्चित् गणः अस्ति, तस्मिन् गणे अपि न भवेत् इति नियमाः सन्ति पुंवद्भावस्य. उदाहरणमेकं पश्यामः. चित्राः गावः यस्य सः. यस्य गावः धेनवः. चित्राः चित्रवर्णाः. चित्रपदस्य मल्टिकलर् वर्णानां मिश्रणं यत्र अस्ति सः चित्रवर्णः इति कथ्यते. अत्र चित्राः गावः. नियमाः सर्वेपि सन्ति वा इति पश्यामः. पूर्वपदं स्त्रीलिङ्गम् अस्ति. चित्रा चित्रे चित्राः इति स्त्रीलिङ्गे प्रथमाविभक्तौ बहुवचनान्तम्. भाषितपुंस्कम् अस्ति. चित्रः चित्रा इति लिङ्गद्वये अपि प्रयोगः अस्ति, अतः भाषितपुंस्कत्वम् अस्ति. चित्रा इत्यत्र टाप् प्रत्ययः, ऊङ् नास्ति. भाषितपुंस्कात् अनूङ् समानाधिकरणम्. चित्राः गावः उभयमपि प्रथमान्तं समानाधिकरण्यमस्ति. स्त्रियाम् उत्तरपदं स्त्रीलिङ्गे भवेत्. गोशब्दः स्त्रीलिङ्गे अस्ति. पूरणप्रत्ययान्तं न, प्रियादिगणे अपि नास्ति. अतः सर्वे नियमाः सन्ति इत्यतः अत्र पुंवद्भावः भवति. कथं भवति? चित्राः गावः यस्य सः. चित्रा जस् गो जस् इति अनेकमन्यपदार्थे इत्यनेन बहुव्रीहि समासः. सुपोधातुप्रातिपदिकयोः इत्यनेन सुब्लुकि चित्रा गो इति भवति. इदानीं पुंवत् भावः. पूर्वपदं चित्रा इत्यस्ति. पुंवत् पुल्लिङ्गे कथं भवति प्रातिपदिकं? चित्र इति भवति. अतः चित्र गो. स्त्रियाः पुंवद् भाषितपुंस्कादनु समानाधिकरणे स्त्रियामपूरणी प्रियादिषु इति सूत्रेण पुंवद्भावः भवति. चित्र गो. इदानीं गोशब्दस्य गोस्त्रियोरुपसर्जनस्य इति सूत्रं पूर्वं दृष्टम्. उपसर्जनं यः गोशब्दः स्त्री प्रत्ययान्तश्च तस्य ह्रस्वः भवति इत्युच्यते. समासस्य अन्ते उपसर्जनं बहुव्रीहौ सर्वाणि पदानि उपसर्जनानि भवन्ति. अतः उपसर्जनस्य गोशब्दस्य ह्रस्वः. ए च इग् ह्रस्वादेशे. ए ओ ऐ औ एतेषां ह्रस्वः यदा क्रियते तदा ए ऐ एतयोः इ इति भवति. ओ औ एतयोः उ इति भवति. अतः चित्रगु इति भवति. तस्य सुप्रत्ययः चित्रगुः. चित्राः गावः यस्य सः चित्रगुः. अत्र पूर्वपदे पुंवद्भावः अस्ति. अवगतं वा? केऽपि प्रश्नाः सन्ति वा? पुंवद्भावस्य अन्यानि कानिचन उदाहरणानि पश्यामः. रूपवती भार्या यस्य सः. सो पुंवद्भावः ह्रस्वः न. सो अत्र पश्यामः चेत् चित्रा इत्यस्ति. चित्र इत्युक्ते ह्रस्वः भवति वा इति चेत् ह्रस्वः न, पुंवत्. अतः द्वितीयम् उदाहरणं ददाति. रूपवती भार्या यस्य सः. अत्रापि पूर्वपदं स्त्रीलिङ्गं भाषितपुंस्कम् अस्ति. अनूङ् ऊङ् प्रत्ययः नास्ति. समानाधिकरणसमासः बहुव्रीहिः. उत्तरपदं स्त्रीलिङ्गे अस्ति. पूर्णप्रत्ययान्तं न, प्रियादिगणे अपि नास्ति. अतः पुंवद्भावः भवति. रूपवती इति स्त्रीलिङ्गे प्रातिपदिकं. पुल्लिङ्गे प्रातिपदिकं तु रूपवत्. अतः रूपवद्भार्यः इति भवति. सुन्दरी भार्या यस्य सः सुन्दरभार्यः. सुन्दरी इत्यस्य पुंवद्भावे सुन्दर इति भवति. केवलं बहुव्रीहौ न, कर्मधारये अपि पुंवद्भावः भवति. बुद्धिमती बाला. बुद्धिमद्बाला. कुशला पाचिका. कुशलपाचिका. इत्यादिषु बहुत्र भवति पुंवद्भावः। यद्यपि सूत्रं बहु दीर्घम् अवगमने क्लेशः इति भाति, सामान्यतः कर्मधारये बहुव्रीहौ वा पदद्वयमपि स्त्रीलिङ्गे भवति चेत् पूर्वपदस्य पुंवद्भावः भवति। तत्र केचन नियमाः सन्ति, के नियमाः इति द्रष्टव्यं तावदेव। अनु किं वामोरूभार्यः, एकम् उदाहरणं दर्शयति। वामोरुः भार्या यस्य सः इति विग्रहः। वामोरुः इत्यस्य वामौ ऊरु यस्याः सा वामोरुः इति ऊरुशब्दस्य ऊरुशब्दात् ऊङ् प्रत्ययः विधीयते। वामोरुः तत्र वामं नाम सुन्दरम् इत्यर्थः। सुन्दरौ ऊरु यस्याः सा वामोरुः, तत्र ऊरु शब्दात् ऊङ् प्रत्ययः अस्ति। इदानीं वामोरुः भार्या यस्य सः इति क्रियते चेत् वामोरु इति पूर्वपदं स्त्रीलिङ्गे अस्ति, भाषितपुंस्कमस्ति, सामानाधिकरण्यमस्ति, सर्वे नियमाः सन्ति चेदपि ऊङ्गन्तत्वात् तत्र पुंवद्भावः न भवति इति प्रदर्शयति। सः एकः निषेधः, ऊङ्गन्तं पूर्वपदम् ऊङ्गन्तमस्ति चेत् पुंवद्भावः न भवति। उत्तरपदं पूरणान्तं वा प्रियादिगणे वा अस्ति चेत् पुंवद्भावः न भवति इत्यपि अस्ति। तर्हि उत्तरपदं पूरणप्रत्ययान्तं चेत् किं भवति इति तत्र एकं सूत्रमस्ति, समासान्तसूत्रं वस्तुतः अप् पूरणी प्रमाण्योः। समासान्ताः तद्धिताः बहुव्रीहौ इति अनुवर्तते। अप् समासान्तप्रत्ययः पूरणी प्रमाण्योः इति षष्ठीविभक्तौ द्विवचनान्तम्। इदं विधिसूत्रं समासान्तविधानं क्रियते। किमुच्यते? पूरणार्थप्रत्ययान्तं यत् स्त्रीलिङ्गं तदन्तात् प्रमाण्यन्ताच्च बहुव्रीहेः अप् स्यात्। बहुव्रीहिसमासे उत्तरपदं पूरणप्रत्ययान्तं स्त्रीलिङ्गं भवति चेत् अथवा प्रमाणी शब्दान्तः भवति चेत् तत्र अप् इति समासान्तः भवति। कल्याणी पञ्चमी यासां रात्रीणां, ताः कल्याणी पञ्चमाः रात्रयः इति उदाहरणं दीयते। अत्र बहुव्रीहिसमासः, कल्याणी पञ्चमी यासां रात्रीणाम् अर्थात् ए ग्रूप् आफ् नैट्स् इन् विच् द पञ्चमी द फिफ्त् नैट् इस् वेरि आस्पीशियस्। पञ्चमी रात्रिः अत्यन्तं कल्याणी भवति। कदाचित् भवति कश्चित् पक्षः भवति यत्र पञ्चमी अत्यन्तं शुभा इति उच्यते, अतः कल्याणी पञ्चमाः इति तत्र प्रयोगः। इदानीम् अत्र कल्याणी पञ्चमी इत्यस्ति, प्रथमः अंशः पुंवद्भावः न भवति। किमर्थं न भवति? उत्तरपदं पूरणप्रत्ययान्तम् अस्ति इत्यतः पूर्वपदस्य पुंवद्भावः न भवति। कल्याणपञ्चमाः इति न भवति, कल्याणी पञ्चम इत्येव भवति। उत्तरपदे कः विशेषः? पञ्चमी इति पूरणप्रत्ययान्तमस्ति, अतः समासान्तः अप् इति प्रत्ययः भवति। प्रक्रियां पश्यामः चेत् कल्याणी सु पञ्चमी सु इति अलौकिकविग्रहः, अनेकमन्यपदार्थे इत्यनेन समासः। इदानीमत्र समासान्तप्रत्ययः अप् इति प्रत्ययः क्रियते अप् पूरणी प्रमाण्योः इत्यनेन। कल्याणीसु पञ्चमीसु अप् अप् इत्यत्र अकारः शिष्यते। सुबोधातुप्रातिपदिकयोः इत्यनेन सुब्लुकि, कल्याणी पञ्चमी अ इत्यस्ति। पञ्चमी इत्यत्र ईकारस्य यस्येति च इत्यनेन लोपः, अतः कल्याणी पञ्चम अ कल्याणी पञ्चम इति समस्तपदम्। इदमपि स्त्रीलिङ्गं, यासां ताः इति विशेष्यमपि स्त्रीलिङ्गे अस्ति इत्यतः पुनः स्त्रीलिङ्गे टाप् इति प्रत्ययः क्रियते। कल्याणी पञ्चम आ अजाद्यतः टाप् अदन्तात् शब्दात् टाप् इति स्त्रीप्रत्ययः भवति. अकस्सवर्णे दीर्घः इत्यनेन सवर्णदीर्घे कल्याणी पञ्चमा इति आकारान्तं स्त्रीलिङ्गं. तस्य प्रथमाविभक्तौ बहुवचने जस् प्रत्ययः. कल्याणी पञ्चमाः रमा रमे रमाः एवं कल्याणी पञ्चमा कल्याणी पञ्चमे कल्याणी पञ्चमाः इति भवति. कल्याणी पञ्चमी आसां ताः कल्याणी पञ्चमाः. अत्र विशेषद्वयं. पूर्वपदे पुंवद्भावः न भवति इति एकः विशेषः. उत्तरपदे अप् इति समासान्तः भवति इति द्वितीयः विशेषः. अप् पूरणी प्रमाण्योः इत्यत्र अन्यदुदाहरणं दीयते. पूरणी प्रमाण्योः इत्यस्ति. प्रमाणी शब्दः समासे अस्ति चेत् बहुव्रीहिसमासे, तत्रापि अप् समासान्तः भवति. स्त्री प्रमाणी यस्य सः स्त्री प्रमाणः इत्यस्ति. तत्र प्रमाणी शब्दात् अप् प्रत्यये कृते यस्येति च इत्यनेन ईकारस्य लोपे स्त्री प्रमाणः इति भवति. अत्र पुंवद्भावस्य प्रसङ्गः नास्ति, यतोहि पूर्वपदं भाषितपुंस्कं नास्ति. अप्रियादिषु किं कल्याणी प्रियः इत्यादि. इदानीं पुनः पूर्वतनसूत्रं प्रति गच्छति. स्त्रियाः पुंवद्भाषितपुंस्कादनु समानाधिकरणे स्त्रियाम् अपूरणी प्रियादिषु. अपूरणी इत्युक्ते पूरणप्रत्ययान्तेषु पुंवद्भावः न भवति इत्यस्य उदाहरणं प्रदर्शितम्. प्रियादिगणे विद्यमानानां शब्दानाम् अपि पुंवद्भावनिषेधः, अर्थात् उत्तरपदं प्रियादिगणे अस्ति चेत् पूर्वपदस्य पुंवद्भावः न भवति. उदाहरणमस्ति कल्याणी प्रियः. कल्याणी प्रिया यस्य सः कल्याणी प्रियः. तत्र कल्याणी इति पूर्वपदं भाषितपुंस्कं, सामानाधिकरण्यमस्ति, स्त्रीलिङ्गमुत्तरपदमस्ति, सर्वे नियमाः सन्ति. तथापि प्रियादिगणे अयं शब्दः, प्रियादिगणे एते शब्दाः सन्ति. प्रिया मनोज्ञा कल्याणी सुभगा दुर्भगा भक्तिः सचिवा अम्बा कान्ता क्षान्ता समा चपला दुहिता वाम. एते शब्दाः उत्तरपदं भवन्ति चेत् पूर्वपदस्य पुंवद्भावः न भवति इति अर्थः. एतेषु उत्तरपदेषु, अत्र प्रिय इति प्रिया इत्यस्मिन् उत्तरपदे परे पूर्वपदस्य पुंवद्भावः न भवति. कल्याणी भार्या यस्य सः कल्याणभार्यः. अन्यस्मिन् पदे भवति, किन्तु प्रिया इत्यस्मिन् उत्तरपदे न भवति. अवगतम्? अग्रे गच्छामः. अग्रे बहुव्रीहिसमासे अन्ये केचन समासान्तप्रत्ययाः उच्यन्ते. अत्रैव आरब्धम् अपूरणी प्रमाण्योः इत्यत्रैव अप् इति समासान्तः उक्तः. अन्ये केचन समासान्तप्रत्ययाः उच्यन्ते. बहुव्रीहौ सख्यक्ष्णोः स्वाङ्गात् षच् इति एकं सूत्रमस्ति. बहुव्रीहौ इति सप्तमी, सख्यक्ष्णोः सक्ति अक्षि एतयोः षष्ठी द्विवचनम्, स्वाङ्गात् इति पञ्चमी, षच् इति प्रथमा. समासान्ताः तद्धिताः इति अधिकारः. इदं विधिसूत्रं. षच् इति समासान्तप्रत्ययः अनेन विधीयते. कदा भवति षच् प्रत्ययः? बहुव्रीहिसमासे सक्तिशब्दः अक्षिशब्दः वा उत्तरपदं भवति. पूर्वपदं किं भवति? स्वाङ्गं भवति. स्वाङ्गम् इत्युक्ते किम् इति अग्रे पश्यामः. तदा षच् इति समासान्तः भवति. स्वाङ्गवाचि स्वक्ति अक्ष्यन्तात् बहुव्रीहेः षच् स्यात्. स्वाङ्गम् इस् एन् आर्गन् इत्यर्थः, अवयवः इत्यर्थः. तस्य विशिष्टं लक्षणमस्ति, अग्रे पश्यामः. सक्तिशब्दः अक्षिशब्दश्च स्वाङ्गवाचकः यत्र अस्ति सत्यक्ष्णोः इति तर्हि अत्र पञ्चमी क्षम्यताम् तत्र बहुव्रीहिसमात् षच् प्रत्ययः भवति इत्यर्थः. सो स्वाङ्गं पूर्वपदं न सक्थि पदम् अक्षि इति पदं च स्वाङ्गवाचकं भवति चेत् ततः बहुव्रीहेः षच् प्रत्ययः भवति. दीर्घसक्थः जलजाक्षी इति उदाहरणम्. दीर्घे सक्थिनी यस्य सः सक्थि इत्यस्य ऊरुः इत्यर्थः. द थै बोन् इस् काल्ड् सक्थि. सो यस्य पादौ अत्यन्तं दीर्घौ, पादस्य ऊरुभागः अत्यन्तं दीर्घः, सः दीर्घ अनेन समासेन उच्यते. दीर्घे सक्थिनी यस्य सः सक्थि सक्थिनी सक्थीनि इति शब्दः. तत्र दीर्घसक्थि इत्यस्मात् षच् इति समासान्तः. षचि षकारस्य षः प्रत्ययस्य इति इत्संज्ञा, चकारस्य हलन्त्यम् इति इत्संज्ञा, उभयोः लोपे अ इति भवति. यस्येति च इत्यनेन इकारस्य लोपे दीर्घसक्थः. दीर्घे सक्थिनी यस्य सः, तत्र सक्थि शब्दः इकारान्तः किन्तु समासे अकारान्तः भवति. इदानीं प्रश्नः, अत्र षच् इति किमर्थं दीयते? पूर्वं तत्पुरुषे अव्ययीभावे च दृष्टम् अच् इत्येव वक्तुं शक्यते किल. यदि अच् इति समासान्तप्रत्ययः अस्ति तत्रापि किं भवति? अ अकारः भवति. पूर्वपदे इकारस्य लोपे सति दीर्घसक्थ इति रूपं भवति. तर्हि षच् इति षकारस्य किं प्रयोजनम्? अत एव स्त्रीलिङ्गे एकम् उदाहरणं दर्शयति. जलजे इव अक्षिणी यस्याः सा. यस्याः अक्षिणी जलजे इव, जलजं नाम कमलं. तत्र जलजाक्षि जलज अक्षि जलजाक्षी अ. यस्येति च इत्यनेन इकारस्य लोपे जलजाक्षः इति पुल्लिङ्गे भवति. यदा अस्य स्त्रीलिङ्गे रूपम् इष्यते तदा जलजाक्ष ई, तत्र नीष् इति स्त्रीप्रत्ययः भवति. नीष् प्रत्ययः कदा भवति? षिद् गौरादिभ्यश्च इति सूत्रेण भवति. यत्र षित् प्रत्ययः अस्ति तत्र नीष् भवति, नो चेत् सामान्यतः टाप् प्रत्ययः एव भवति. यथा कमलनेत्रः कमलनेत्रा, राजीवनेत्रः राजीवनेत्रा, अथवा कमलनयना राजीवनयना, सर्वत्र टाप् एव भवति. अत्रापि यदि केवलम् अच् इति समासान्तप्रत्ययः अस्ति तदा जलजाक्षः जलजाक्षा इति भवेत्. अस्माकं तु रूपं किमस्ति? जलजाक्षी इत्यस्ति. स्त्रीलिङ्गे तत्र नीष् इति प्रत्ययः अपेक्ष्यते. नीष् प्रत्ययः षिद्गौरादिभ्यश्च इति षित्वम् आश्रित्य भवति. अत एव अत्र समासान्ते षकारः इत्सम्यकत्वेन दत्तः. एतत् स्मर्तव्यं, पाणिनीयव्याकरणे सर्वत्रापि इत्संज्ञायाः प्रयोजनं भवति. केवलं पाणिनेः इष्टानुगुणं सः इत्संज्ञां न योजयति, तत्र प्रयोजनं भवति. कुत्रचित् अच् भवति, कुत्रचित् षच् भवति, कुत्रचित् ष भवति, सर्वत्रापि विशेषः भवति. अतः अत्र षच् अस्ति इत्यतः स्त्रीलिङ्गे ईकारान्तं भवति. यदि अच् प्रत्ययः तदा स्त्रीलिङ्गे तु आकारान्तमेव भवति इति विशेषः. एवञ्च सक्थिशब्दः अक्षिशब्दश्च बहुव्रीहिसमासे अस्ति चेत् षच् प्रत्ययः भवति इति उक्तम्. अत्र स्वाङ्गम् इत्यस्ति, स्वस्य अङ्गं स्वाङ्गम् अवयवः. अत्र ऊरुः सर्वदा अवयवः एव भवति. नेत्रम् अक्षि इत्युक्ते नेत्रमपि सर्वदा अवयवमेव भवति. स्वाङ्गम् इति किमर्थम् उच्यते इति प्रश्नः. तत्र उदाहरणं ददति. స్వాంగాత్ కిం దీర్ఘ శక్తి శకటం. అత్ర దీర్ఘే శక్తిని యస్య తత్ ఇత్యేవ విగ్రహః. కింతు అత్ర శక్తి శబ్దస్య షాఫ్ట్ అథవా పోల్ ఇత్యర్థః. శకటం దృష్టమేవ స్యాత్. శకటస్య అగ్రభాగే కాష్ఠద్వయం భవతి, ద పోల్స్ ఆర్ ద షాఫ్ట్స్ ఆఫ్ ద కార్ట్. ఏన అగ్రే యత్ర వృషభయోః యోజనం క్రియతే తత్ర మధ్యే లింకింగ్ రూపేణ షాఫ్ట్ ద్వయం భవతి, తస్యాపి శక్తి ఇత్యేవ నామ. అత్ర శక్తి శబ్దః స్వాంగం న. స్వాంగం నామ కిం? అద్రవం మూర్తిమత్ స్వాంగం ప్రాణిస్థం అవికారజం. ప్రాణిస్థం ప్రాణిని యః అవయవః భవతి. అద్రవం ద్రవరూపం న. అథ యథా రక్తం, రక్తం స్వాంగం న. మూర్తిమత్, మూర్తిమత్ నామ యస్య రూపమస్తి. యథా చిత్తం ఇది స్వీకుర్మః చేత్ చిత్తం స్వాంగం న. యతో హి చిత్తం మూర్తిమత్ న, ఇట్ డస్ నాట్ హ్యావ్ ఎ ఫిజికల్ ఫార్మ్. అద్రవం మూర్తిమత్ స్వాంగం ప్రాణిస్థం అవికారజం. కదాచిత్ వికారేణ కించిద్ అంగం జాయతే, సో లైక్ అ ట్యూమర్, గడుహు ఇది ఉచ్యతే, కట్టి. సో తత్తు స్వాంగం న, కిమర్థం తత్తు వికారజం భవతి. ఇదం స్వాంగస్య టెక్నికల్ డెఫినేషన్. స్వాంగం నామ కిం? ప్రాణిస్థం, సో అన్ అవయవ విచ్ ఇస్ ఫౌండ్ ఇన్ అ ప్రాణి విచ్ ఇస్ నాట్ ద్రవ, నాట్ లిక్విడ్. మూర్తిమత్ విచ్ హ్యాస్ అ ఫిజికల్ ఫార్మ్. అండ్ అవికారజం దట్ విచ్ ఇస్ నాట్ డ్యూ టు అ వికార ఇస్ కాల్డ్ స్వాంగ. అత్ర తు ప్రాణిస్థం నాస్తి, దిస్ శక్తి ఇస్ నాట్ ఇన్ అ ప్రాణి, ఇట్ ఇస్ ఇన్ అ శకట. అతః స్వాంగం న, అతః అత్ర అచ్ నాస్తి దీర్ఘ శక్తి శకటం ఇత్యేవ ప్రయోగః. ఏవమేవ స్థూలాక్షా వేణుయష్టిః. వేణుయష్టిః అ బాంబూ స్టిక్. ద బాంబూ స్టిక్ లో దేర్ ఆర్ అక్షి. అక్షి ఇస్ యూ హ్యావ్ ద హోల్స్ ఇన్ ఎ బాంబూ స్టిక్, ఓకే, దట్ ఇస్ కాల్డ్ అక్షి. ఆర్ ఈవన్ దట్ వాట్ డూ యూ కాల్ దట్ జాయింట్స్ ఆర్ ఆల్సో కాల్డ్ అక్షి ఇన్ అ బాంబూ. సో తత్ర స్థూలాని అక్షీణి యస్యాః సా ఇతి సమాసే అక్షి శబ్దః స్వాంగం న. వేణు యష్టిహి, ఇట్ ఇస్ నాట్ అ ప్రాణి because you are talking about the stick, not the growing bamboo. A bamboo stick ityarthe tatra swangatvam nasti atah shach iti pratyayah na bhavati. Tarhi kim bhavati sthulaksha ityatra adantatvam katham? Sthulakshi iti ikarantatvam bhavet kila iti chet akshnah adarshanat iti vakshyamanah ach. అగ్రే వయం సూత్రం పశ్యామః. యత్ర అచ్ ఇతి సమాసాంత ప్రత్యయః క్రియతే. అచ్ ప్రత్యయః క్రియతే చేత్ స్త్రీలింగే ఆకారాంతత్వం భవతి. స్థూలాక్షా వేణు యష్టిః. అయమేవ అచ్ శచోః విశేషః. అచేతనం చేదపి స్వాంగమేవ ఖలు ఇది చేత తదేవ తదర్థమేవ స్వాంగస్య టెక్నికల్ డెఫినేషన్ ప్రాణిస్థం. యత్ర ప్రాణిని అస్తి తదేవ స్వాంగం ఇది స్వీక్రియతే. కేవలం స్వస్యాంగం స్వాంగం ఇత్యర్థః న. సో స్వాంగ ఇస్ ఎ టెక్నికల్ టర్మ్ విత్ దిస్ డెఫినేషన్. ప్రాణిస్థం అద్రవం మూర్తివత్ స్వాంగం ప్రాణిస్థం అవికారజం ఇత్యేవ స్వాంగస్య పారిభాషికం లక్షణమస్తి. అతః తాదృశం స్వాంగం ఇదం న ఇది. అత్ర స్వాంగశబ్దః వ్యాకరణే బహుత్ర ఉపయుజ్యతే. తత్ర స్త్రీ ప్రత్యయేషు అస్తి, సర్వత్ర అస్తి. సర్వత్రాపి స్వాంగశబ్దస్య అయమేవ అర్థః. బహువ్రీహ్యో सख्यक्ष्णोः स्वाङ्गात् शच्। यदा सक्तिशब्दः अक्षिशब्दः वा स्वाङ्गवाचकः अस्ति तदन्तात् बहुव्रीहेः षच् इति समासान्तप्रत्ययः भवति। अग्रिमं सूत्रमस्ति द्वि त्रिभ्यां षः मूर्धनः। द्वित्रिभ्याम् इति पञ्चमी, षः इति प्रथमा भवेत्, तस्य प्रथमा विभक्तिः लुप्ता, षः मूर्धनः पञ्चमी विभक्तिः। बहुव्रीहौ तद्धिताः समासान्ताः इति सर्वम् अनुवर्तते, ष इति समासान्तप्रत्ययस्य विधानं क्रियते। आभ्यां मूर्धनः षः स्यात् बहुव्रीहौ। आभ्यां द्वित्रिभ्यां, द्विशब्दः त्रिशब्दः वा पूर्वपदमस्ति चेत् तस्मात् परस्य मूर्धन् इति उत्तरपदस्य ष इति समासान्तप्रत्ययः भवति। द्वित्रिभ्यां परस्य मूर्धन् शब्दस्य ष इति समासान्तप्रत्ययः भवति बहुव्रीहिसमासे। द्विमूर्धः त्रिमूर्धः इति उदाहरणम्। द्वौ मूर्धानौ यस्य सः, मूर्धा मूर्धानौ मूर्धानः, मूर्धा इत्युक्ते शिरः इत्यर्थः, यस्य शिरोद्वयमस्ति सः इत्यर्थः। तत्र द्वि औ मूर्धन् औ इति समासः अनेकमन्यपदार्थे इति बहुव्रीहिः। सुपोधातुप्रातिपदिकयोः इत्यनेन सुब्लुक्, ततः पूर्वं समासान्तः। द्वि औ मूर्धन् औ अ ष प्रत्ययः क्रियते द्वित्रिभ्यां ष मूर्धनः इत्यनेन। सुपोधातुप्रातिपदिकयोः इत्यनेन सुब्लुकि, द्वि मूर्धन् अ किं भवति, मूर्धन् अ किं कार्यं भवति अत्र स्मरन्ति वा? नलोपः कथं भवति, केन सूत्रेण? नलोपः अपि न, केवलस्य नकारस्य न। कस्य लोपः भवति? अन् इत्यस्य लोपः भवति। टिलोपः केन सूत्रेण? बहुपूर्वमधीतं, परीक्षापि समाप्ता, अतः प्रष्टव्यं नास्ति। नस्पर्धिते इति तिलोपः, हिकारलोपः न, एतत्तु कापि पेस्ट् हेरर्। तिलोपः, अन् इत्यस्य टेः लोपः भवति नस्पर्धिते, नान्तस्य टेः लोपः स्यात् भसंज्ञायां दद्धिते इति। अतः द्विमूर्ध अ द्विमूर्ध इति अकारान्तं भवति द्विमूर्धः। द्वौ मूर्धानौ यस्य सः द्विमूर्धः, एवं त्रयः मूर्धानः यस्य सः त्रिमूर्धः। एतत् बहु स्पेसिफिक् अस्ति, पूर्वपदं द्वि अथवा त्रि भवेत्, उत्तरपदं मूर्धन् भवेत्, तत्रैव अयम्। अतः उदाहरणद्वयमेव भवति अस्य सूत्रस्य, अन्यदुदाहरणं न भवति। अग्रिमं सूत्रमस्ति अन्तर्बहिर्भ्यां च लोम्नः इति। अन्तर्बहिर्भ्याम्, अन्तर् अथवा बहिर् एतयोः पूर्वपदयोः परस्य लोमन् शब्दस्य अप् भवति। अत्र सिद्धान्तकौमुद्याम् अयं क्लेशः, इदानीं किं दृष्टं? पूर्वं द्वित्रिभ्यां ष मूर्धनः इति दृष्टं, शप्रत्ययः दृष्टः, अग्रे अन्तर्बहिर्भ्यां च लोम्नः इत्युच्यते। किं चिन्त्यते? अस्तु, अत्रापि शप्रत्ययः इति, किन्तु अष्टाध्याय्यां सूत्रक्रमः भिन्नः। एतत्तु 117, पूर्वं पश्यन्ति चेत् एतत्तु 115, मध्ये किमस्ति इति पश्यामः चेत् मध्ये इदमस्ति अपूरणी प्रमाण्योः इत्यस्ति, अतः इतः अप् इति स्वीक्रियते। అయమేవ సిద్ధాంతకౌముద్యాః వా లఘు సిద్ధాంతకౌముద్యాః వా క్లేశః. అనేన క్రమేణ యదా పశ్యామః తదా సూత్రార్థః స్వయం న అవగమ్యతే. అష్టాధ్యాయ్యాం కిం భవతి బహువ్రీహౌ సత్యక్ష్ణోః స్వాంగాత్ షచ్ ఇతి ఆరభ్యతే. అనంతరం తదా కిం జ్ఞాతం అస్తు బహువ్రీహి సమాస ప్రకరణం ఆరబ్ధం తతః ద్వితిభ్యాం శ మూర్ధనః శ ప్రత్యయః అప్పు పూరణీ ప్రమాణ్యోః అంతర్బహిర్భ్యాం చ లోమ్నః. తేన క్రమేణ పశ్యామః చేత్ ఝటితి అత్ర కః ప్రత్యయః ఇతి జ్ఞాయతే, కౌముదీ క్రమే తు న జ్ఞాయతే. అతః కించిత్ జాగరూకైః భావ్యం. సో అత్ర అప్ ఇతి అనువర్తతే బహువ్రీహౌ తద్ధితాః సమాసాంతాః. అప్ ఇతి సమాసాంతస్య విధానం క్రియతే. ఆభ్యాం లోమ్నః అప్ స్యాత్ బహువ్రీహౌ. ఆభ్యాం నామ అంతర్బహిర్, ఏతాభ్యాం శబ్దాభ్యాం పరస్య లోమన్ శబ్దస్య అప్ ఇతి సమాసాంతః భవతి. అంతర్లోమః బహిర్లోమః. అంతః లోమాని యస్య సః అంతర్లోమః. అంతర్ సు లోమన్ జస్ ఇత్యస్తి అనేకమన్య పదార్థే ఇత్యనేన బహువ్రీహిః. అత్ర అప్ సమాసాంతః భవతి అంతర్బహిర్భ్యాం చ లోమ్నః ఇతి. అంతర్ లోమన్ అ అత్రాపి పునః అన్ ఇత్యస్తి. నస్తద్ధితే ఇత్యనేన టిలోపః క్రియతే. అంతర్ లోమ్ అ అంతర్లోమ అంతర్లోమః. అత్ర తు వ్యక్తిః పురుషః ఏవ భవేదితి నాస్తి. కదాచిత్ కుత్రచిత్ ఫలే అంతః లోమాని భవంతి అథవా వృక్షే భవంతి. కుత్రచిత్ పదార్థే భవితుమ్ అర్హతి. అంతర్లోమః బహిర్లోమః. బహిః కదాచిత్ హేరి. లోమం నామ రోమం. లోమ రోమ ఉభయం సమానం. లోమాని రోమాణి హేర్ ఇత్యర్థః. అంతర్లోమః బహిర్లోమః ఇతి ఉదాహరణం. కశ్చిత్ ప్రశ్నః ఏతాదృశః కోపి భవతి వా? ఏతత్తు ద్విమూర్ధ త్రిమూర్ధ ఇతి అస్తి కిల. పురాణేషు తు బహుధా అస్తి త్రిశిరాః ఇత్యుచ్యతే. యస్య త్రయః శిరాః శిరాంసి భవంతి త్రీణి శిరాంసి ఇత్యాది. పురాణేషు తు బహుధా అస్తి వ్యవహారః. అతః పదం తు అస్తి. ఇదానీం తాదృశాః భవంతి వా న జ్ఞాయతే. అస్తు సంక్షేపః. అద్య పుంవద్భావః దృష్టః. పుంవద్భావ విధాయకం సూత్రమస్తి. స్త్రియాః పుంవద్ భాషిత పుంస్కాద్ అనూం సమానాధికరణే స్త్రియామ పూరణీ ప్రియాదిషు. స్త్రీవాచకస్య పూర్వపదస్య పుంవత్ రూపం భవతి. పంచ నియమాః సంతి. పూర్వపదం భాషిత పుంస్కం భవేత్. ఊం ప్రత్యయాంతం న భవేత్. పూర్వోత్తర పదయోః సమానాధికరణ్యం భవేత్. ఉత్తరపదమపి స్త్రీలింగే భవేత్. ఉత్తరపదం పూరణ ప్రత్యయాంతం వా ప్రియాదిగణే స్థితం వా న భవేత్. ఏతాదృశ స్థితౌ స్త్రియాః పుంవద్భావః భవతి ఇతి. తతః బహువ్రీహౌ సమాసాంతాః ప్రత్యయాః దృష్టాః. అప్ పూరణీ ప్రమాణ్యోః. ఉత్తరపదం పూరణ ప్రత్యయాంతం వా ప్రమాణీ శబ్దః వా భవతి చేత్ అప్ ఇతి సమాసాంతః భవతి. ఉత్తరపదం స్వాంగవాచకం సత్థి అక్ష్ణి అక్షివా భవతి చేత్ షచ్ సమాసాంతః భవతి. ఉత్తరపదం మూర్ధన్ శబ్దః భవతి చేత్ పూర్వపదం ద్వి అథవా త్రి భవతి చేత్ తత్ర ష ఇతి సమాసాంతః భవతి. అంతర్బహిర్భ్యాం చ లోమ్నః. ఉత్తరపదం లోమన్ శబ్దః పూర్వపదం అంతర్ అథవా బహిర్ ఇతి భవతి చేత్ తత్రాపి అప్ ఇతి సమాసాంతః భవతి. ఇత్యేతావత్ ద్రష్టం. ఇతోపి కేచన సమాసాంతాః సంతి బహువ్రీహి సమాసే. తత అగ్రిమవర్గే పశ్యామః. అద్యతన ప్రశ్నాః. పుంవద్భావః కేన సూత్రేణ విధీయతే? సోదాహరణం వివృణుత. బహువ్రీహౌ మూర్ధన్ శబ్దస్య కః సమాసాంతః కదా భవతి? సోదాహరణం లిఖత. బహువ్రీహౌ సత్యక్ష్ణోః స్వాంగాత్ షచ్. అస్మిన్ సూత్రే స్వాంగగ్రహణస్య కిం ప్రయోజనం? స్వాంగం నామ కిం? తద్గ్రహణస్య కిం ప్రయోజనం ఇతి వక్తవ్యం. తతః కానిచన విగ్రహవాక్యాన్ని దీయంతే. తేషాం సమస్త పదం దాతవ్యం. दश विग्रहवाक्यानि सन्ति तेषां समस्तपदं लेखनीयम्. अत्र समापयामः. द्वित्राः विषयाः. इतोपि वर्गत्रयं भवेत्. बहुव्रीहिसमासस्य एकः वर्गः, द्वन्द्वसमासस्य एकः वर्गः, अन्ते समासान्तप्रकरणम् इति त्रिचतुराणि सूत्राणि सन्ति. तत्र एकः वर्गः कदा कुर्मः इति वक्तव्यम्. शुभा भगिनी, कदा प्रशिक्षणं प्रति गमनम्?
आगामि सोमवासरे भगिनि, 13th आरभ्य 26th पर्यन्तं तत्र वासः.
अस्तु. प्रत्यागमनं
26th सायंकाले भविष्यति प्रायः.
तर्हि इदानीं न शक्यते. तस्मिन् सप्ताहे अहं न भवामि, तर्हि जून् मासस्य प्रथमसप्ताहे करणीयं भवति. वर्गत्रयम् अपेक्ष्यते. मया इतोपि सिद्धता न कृता. यदि कृता इदानीमेव कुर्मः इति कर्तुं शक्यमासीत्.
श्वः अपि
तदेव. मया एतावदेव सज्जीकृतम्. अन्ये वर्गाः अपि सन्ति, स एव क्लेशः. श्वः परश्वः कुर्मः चेत् शक्यते वा भवद्भ्यां?
शक्यते, परन्तु भवत्याः कोविड् वर्गः अपि अस्ति खलु.
क्लेशः तस्यापि करणीयम्. एतत् समापयामि इति चिन्तितम्, यतोहि इदानीं ये शास्त्रीपरीक्षां लिखन्ति अथवा आचार्यसेतुं लिखन्ति तेषामपि सिलेबस् मध्ये अस्ति. बहवः पृच्छन्ति. इदानीं तेषां जुलै मासे परीक्षाः भवन्ति, अतः अहम् एतत् समापयामि चेत् अस्माकं पाठशालायाम् आरोपयितुं शक्यते इति मम आशा. क्रियते चेत् केषाञ्चन उपयोगाय भवेत् परीक्षालेखने इति. अतः अस्तु, अहं सूचयामि. तर्हि श्वः परश्वः कथञ्चित् समापयामः. अधिकं नास्ति. अन्यदेकं साह्यम् अपेक्षितम्.
घण्टाद्वयमपि कर्तुं शक्यते.
तदेव, तत् तथैव प्रायः अहं सिद्धतां करोमि, कृत्वा सूचयामि. समापयामः अद्य श्वः भानुवासराभ्यन्तरे समापयामः. समयमहं सूचयामि. अन्यदेकं साह्यम् अपेक्षितम्. अत्र ये यच्छां पाठानां यत् अभ्यासाः सन्ति तेषाम् उत्तराणि मम पृथक् अपेक्षितानि, इत्युक्ते उट्टङ्कितानि उत्तराणि. तत्र अप्लोड् कर्तुमेव तेषां साहाय्यार्थं. तत्र अहं किं करोमि, वस्तुतः बहूनां प्रश्नानाम् अग्रिम वर्गस्य PPT मध्ये एव उत्तराणि सन्ति. मया तत्र PPT सर्वं तत्र शेर्ड् फोल्डर् मध्ये स्थापितमस्ति. तत्र एव यद्यदस्ति अथवा सूत्राणाम् अर्थः अपि तत एव कापि पेस्ट् कर्तुं शक्यते. अतः तत् कृत्वा दातुं शक्यते वा युवाभ्यां? द्वे एव स्तः.
आं भगिनि,
एक वर्ड् डाक्युमेण्ट् मध्ये एकैकस्य वर्गस्य यथा क्लास् 1 आन्सर्स् इति किमपि कृत्वा एकैकस्य वर्गस्य ये प्रश्नाः विशिष्य तत्रापि दीर्घप्रश्नानां तत्रैव तथैव यत्र सूत्रस्य अर्थः PPT मध्ये अस्ति तदेव कापि पेस्ट् कर्तुं शक्यते. एतादृश आब्जेक्टिव् यदस्ति तेषाम् उत्तरं यदि नास्ति तर्हि टङ्कनीयम्.
कदा अपेक्षितम्?
यदा शक्यते. तदेव, मया एतत् समाप्य प्रायः अग्रिमसप्ताहे कदाचित् अप्लोड् कर्तुं शक्यते, किन्तु भवति न भवति अग्रिमसप्ताहे. अतः राघवी, समयः भवति वा? न श्रुतम्. तर्हि कृत्वा ददाति चेत् अग्रिम एकसप्ताहाभ्यन्तरे कृत्वा दातुं शक्यते चेत् प्रायः 15 दिनाङ्कानन्तरम् अथवा सप्ताहानन्तरम् अहम् अप्लोड् करोमि. तत्र मया सर्वं PPT आरोपितमस्ति, तदाधारेण पृथक् वर्ड् डाक्युमेण्ट् इति क्रियते चेत् अलं. प्रश्नाः उत्तराणि. अस्तु भगिनि, तर्हि अहं समयं सूचयामि अग्रिमवर्गाणां मिलामः. ेनाक्षरसमां नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयं. नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्.